इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री। अथ वार्ताः। नेताजी इत्युपाधिना विभूषितस्य सुभाषचन्द्रबोसवर्यस्य जन्मजयन्त्यवसरे ह्यः राष्ट्रेण पराक्रमदिवसः आचरितः। अस्मिन् वर्षे प्रथमवारं भारतस्य अप्रतिमनेत्रेषु अन्यतमस्य सुभाषचन्द्रबोसवर्यस्य जन्मस्थाने कटकनगरस्य ऐतिहासिक बाराबती दुर्गे ह्यः समारभ्य दिनत्रयं यावत् पराक्रमदिवसः आयोज्यते। सम्पूर्णदेशात् बोसवर्यस्य स्मृतयः आनीताः कटकनगरस्य समारोहस्थले प्रदर्शिताश्च सन्ति। ललितकलासंस्थानेन आयोजितायां प्रदर्शन्यां बोसवर्यस्य बहूनि सुन्दराणि बृहच्चित्राणि अपि समाविष्टानि सन्ति। बोसवर्यं संस्मरता प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः सुभाषचन्द्रबोसवर्येण प्रेरितो भूत्वा विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भवितुं देशस्य प्रतिबद्धता पुनरुच्चारिता। बोसवर्यस्य 28.1 शततमे जन्मजयन्त्यवसरे दृश्यसंवादसन्देशमाध्यमेन प्रधानमन्त्रिणा प्रोक्तं यत् देशवासिभिः विकसितभारतस्य लक्ष्यं साधयितुं प्रयासः विधातव्यः। विश्वे देशस्य विवर्धमानाम् उन्नतिम् अधिकृत्य प्रधानमन्त्री अवदत् यत् देशस्य प्रगतिं प्रति अनुकूलं वातावरणम् अस्ति तथा च विश्वं भारतं प्रति अवलोकयति। 76वें गणतन्त्रदिवसस्य उपलक्ष्ये कर्तव्यपथे भारतीयं सैन्यं स्वबलप्रदर्शनं कर्तुं पूर्णतया सुसज्जं वर्तते। वार्ताहरान् संसूचयन् मेजर जनरल सुमित मेहता इत्यसौ एतां सूचनां प्रदत्तवान्। विदेशसचिवः विक्रम मिश्री रविवासरात् आरभ्य चीनदेशस्य त्रिदिवसीय यात्रायै प्रस्थास्यति, यत्र हि उभयोः देशयोः मध्ये नैकेषु विषयेषु चर्चा भविष्यति। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः ह्यः विश्वासं प्रकटितवान् यत् भारतम् आगामि वर्षेषु महर्घतां नियन्त्रणे स्थापयित्वा 6-8% आर्थिकवृद्धिं कर्तुं सहजतया प्रवृत्तमस्ति। श्रीवैष्णवः दावोस नगरे विश्व आर्थिक मञ्चस्य वार्षिक सभायाम् एतद् उक्तवान्। सः अवदत् यत् समाविष्ट वृद्धिः भारतस्य आर्थिक खचित्रस्य प्रमुखस्तम्भत्वेन वर्तते तथा च निर्माण सेवा नियमानां सरलीकरणं केन्द्रीकृत्य अपि तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यकालः एव समाविष्ट वृद्धेः प्रमुखं कारणम्। इण्डोनेशिया देशस्य राष्ट्रपतिः प्रोबोवो सुबियान्तो इत्येषः गतरात्रौ नवदिल्लीं प्राप्तवान्। प्रबोवो सुबियान्तो भारतीय गणतन्त्र दिवसस्य उपलक्ष्ये मुख्यातिथिपदम् अलंकरिष्यति। चतुर्दिवसीय भारतीय यात्रावधौ एषः भारतीय राष्ट्रपतिं प्रधानमन्त्रिम् अपि मेलिष्यति। श्रीसुबियान्तो विदेशमन्त्रिणा डॉ एस जयशंकरेण सह अपि सम्मेलनं विधास्यति। भारतीयं लघुचलचित्रम् अनुजा इति ऑस्कर पुरस्कारस्य सर्वश्रेष्ठ लघुचलचित्र जीवन वर्गे नामांकितम्। अनुजायाः निर्देशनम् एडम जे ग्रेव्स, सुचित्रा मत्तई इत्येताभ्यां कृतमस्ति। अनुजा नववर्षीयायाः एकस्याः बालिकायाः कथाम् अनुसरति, या हि स्वभगिन्याः पलक इत्यस्याः पार्श्वे जीवनं परिवर्तयितुम् अवसरं प्राप्नोति। एतद्धि विश्वव्यापिनः बालिकानां संघर्षान् प्रतिबिम्बयति। गणतन्त्र दिवसस्य पथसञ्चलनस्य सज्जता द्रुतगत्या प्रवर्धते, ह्यः कर्तव्यपथे पूर्णगणाभ्यासः प्रदर्शितः। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् संयुक्तराज्यामेरिकां समेत्य विदेशेषु निवसताम् अवैध भारतीयानां वैध प्रत्यागमन विषये भारतस्य स्थितिः स्पष्टा अस्ति। सः प्रोक्तवान् यत् भारतं तेषां पुनरागमनस्य स्वागत समर्थनं करोति। ह्यः वाशिंगटन डीसी इत्यत्र वार्ताहरैः सह वार्तालापं कुर्वन् सः अकथयत् यत् भारतं विधिचलनशीलतायाः समर्थनं करोति इति वार्ताः।